इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनानां पंचम चरणस्य कृते अद्य अधिसूचना प्रख्यापिता। अनया अधिसूचनया साकमेव नामांकनम् अपि प्रारब्धमस्ति। प्रमुख राजनीतिक दलानां वरिष्ठाः नेतारः साधारण निर्वाचनस्य अवशिष्ट चरणानां कृते मतदातृन् जनाञ्च स्वपक्षे प्रलोभयितुं तीव्रतमं प्रभावकरञ्च प्रचाराभियानं कुर्वन्तो वर्तन्ते। शीर्षन्यायालयेन अद्य वीवीपीएटी इति मतदातृ सत्यापनकर्गदैः साकं ईवीएम यन्त्रस्य विवरणानां शतप्रतिशतमित मेलनस्य कृते प्रस्तुताः याचिकाः निरस्तीकृताः। भारत दक्षिण कोरिया देशयोः मध्ये निरस्त्रीकरण प्रमाणु अप्रसारयोः विषये मन्त्रणोपवेशनं दक्षिण कोरिया देशस्य राजधान्यां सियोल नगर्याम् आयोजितम्। अपि च आईपीएल इत्याख्यायां क्रिकेट प्रतिस्पर्धायाम् अद्यतनीयं द्वन्द्वं सायं सार्धसप्तवादने कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स पंजाब किंग्स दलयोः मध्ये भविष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनानां पंचम चरणस्य कृते अद्य अधिसूचना प्रख्यापिता जातास्ति। अनया अधिसूचनया साकमेव अस्मै चरणाय नामांकनम् अपि प्रारब्धमस्ति। अस्मिन् चरणे षड् राज्याणां द्वयोः केन्द्रशासित प्रदेशयोश्च ऊनपञ्चाशत् लोकसभासनानां कृते मई विंश्यां मतदानयोजनं भविष्यति। प्रमुख राजनीतिक दलानां वरिष्ठाः नेतारः साधारण निर्वाचनस्य अवशिष्ट चरणानां कृते जनान् मतदातृञ्च स्वपक्षे प्रलोभयितुं तीव्रतमं प्रभावकरञ्च प्रचाराभियानं कुर्वन्तो वर्तन्ते। प्रधानमन्त्री भाजपादलस्य वरिष्ठो नेता च अद्य पश्चिमबंगालस्य मालदायां विशालां जनसभामेकां सम्बोधितवान्। श्रीमोदी तत्रेदं प्रोक्तवान् यत् एकदा तादृशोऽपि कालः आसीत् यदा पश्चिमबंगालः भारतस्य विकासस्य प्रातिनिध्यं करोति स्म, किन्तु कालान्तरे वामदलानां तृणमूल कांग्रेसदलस्य च शासनावसरे राज्येऽत्र विकासः अवरुद्धो जातः। अमुना एतदपि प्रोक्तं यत् कांग्रेसदलं तृणमूल कांग्रेसदलञ्च समुदायविशेषस्य तुष्टीकरणार्थं कामपि मर्यादां लंघयितुं प्रभवन्ति। लोकसभा निर्वाचनानां द्वितीये चरणे अद्य भूरिमात्रायां तीव्ररीत्या मतदानयोजनस्य सूचना वर्तते। अस्मिन् चरणे द्वादश राज्येष् केन्द्रशासित जम्मूकश्मीरे च अष्टाशीति मितेषु संसदीयासनेषु मतदानयोजनं समनुष्ठितम्। एतेषु केरलस्य सर्वाण्यपि विंशति आसनानि, कर्णाटकस्य चतुर्दश, राजस्थानस्य त्रयोदश, उत्तरप्रदेशस्य महाराष्ट्रस्य च अष्ट अष्टमितानि आसनानि सन्ति। तत्रैव मध्यप्रदेशस्य षड्, असमस्य बिहारस्य च पञ्च पञ्च, पश्चिमबंगालस्य छत्तीसगढस्य च त्रीणि त्रीणि, मणिपुरस्य त्रिपुराया च एकैकं, जम्मूकश्मीरस्य चापि एकम् इत्यासनेषु मतदानानि जातानि। सर्वोच्चन्यायालयेन अद्य वीवीपीएटी इति मतदातृ सत्यापनकर्गदैः साकं ईवीएम यन्त्रस्य विवरणानां शतप्रतिशतमितमेलनस्य कृते प्रस्तुताः याचिकाः निरस्तीकृताः सन्ति। एषः निर्णयः न्यायाधीशस्य संजीवखन्नावर्यस्य, न्यायाधीशस्य दीपांकरदत्तामहोदयस्य च एकेन पीठेन संस्रावितः आसीत्। तदानीं पीठेन निर्वाचनायोगं कतिपय प्राविधिकानि स्पष्टीकरणानि अभियाचितानि आसन्, येन कारणेन अप्रैल चतुर्विंश्याम् एतानि प्रकरणानि पुनः सूचीबद्धानि कृतानि अवर्तन्त। ततः अद्य निर्वाचनायोगेन प्रदत्तं स्पष्टीकरणं निध्याय एषः निर्णयः संस्रावितः। अस्मिन् अवसरे न्यायालयेन निर्वाचनायोगाय निर्देशद्वयं प्रदत्तमस्ति। न्यायालयेन निर्दिष्टं यत् ईवीएम यन्त्रेषु निर्वाचनदलचिह्नानां निवेशनानन्तरं तच्चिह्ननिवेशनयन्त्र एकांशाः पूर्णतोदृशा पिहिती कृत्य कंटेनर इति पात्रेषु संसुरक्ष्य संस्थापनीयाः। अथ च अस्मिन् पिधान बन्धने प्रत्याशीनां प्रतिनिधीनां च हस्ताक्षराणि अपि भवेयुः। पिहितानि निबद्धानि च ईवीएम यन्त्राणि न्यूनान्यूनं पञ्चचत्वारिंशत् दिनानि यावत् सुरक्षाकक्षेषु स्थापनीयानि इति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारत दक्षिण कोरिया देशयोः मध्ये निरस्त्रीकरण परमाणु अप्रसारयोः विषये मन्त्रणोपवेशनं दक्षिण कोरिया देशस्य राजधान्यां सियोल नगर्याम् आयोजितम्। विदेशमन्त्रालयेन ख्यापितं यत् उभौ देशौ परमाणु रसायनिक जैविक क्षेत्राणां विकासस्य अप्रसारस्य निरस्तीकरणस्य च विषये मन्त्रितवन्तौ। उभाभ्यां देशाभ्यां क्षेत्रीय अप्रसार विषयेष् बाह्यान्तरिक्ष सुरक्षा सम्बद्ध विषयेष् सैन्य क्षेत्रे कृत्रिम बुद्धिमत्तायाः क्षेत्रे पारम्परिक शस्त्राणां बहुपक्षीय निर्यात नियन्त्रण तन्त्रेष्वपि परिचर्चा कृता। भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं विदेशमन्त्रालयस्य संयुक्त सचिवेन मुआन पुई सैयावी इत्यनेन अपि च दक्षिण कोरिया प्रतिनिधिमण्डलस्य नेतृत्वं विदेशमन्त्रालयस्य परमाणु अप्रसार परमाणु सन्दर्भस्य महानिदेशकेन युन जोंग क्वोन इत्यनेन कृतम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य लोकसभा निर्वाचनानां द्वितीय चरणे भूरी संख्यायां मतदानाधिकारस्य प्रयोगार्थं मतदातृन् जनाः अध्यर्थिताः सन्ति। एकस्मिन् सामाजिक संचार संजालीय सन्देशे प्रधानमन्त्री नरेन्द्रमोदी युवकान् महिलाश्च सविशेषम् अध्यर्थयत् यत् ते ताश्च भूरि संख्यासु मतदान केन्द्राणि गत्वा प्रजातन्त्रस्य मतदानानुष्ठानं सम्यगाचरेयुः। अमुना भणितं यत् अधिकं मतदानं लोकतन्त्रं सुदृढीकरोति। उपराष्ट्रपतिः जगदीप धनखड़ः आन्ध्रप्रदेशस्य एकदिवसीय यात्रायाम् अद्य प्रातः तिरुपतेः रेणिगुण्टा इत्याख्ये विमानपत्तनं सम्प्राप्तवान्। आन्ध्रप्रदेशस्य राज्यपालेन एस अब्दुल नजीरेण राज्यसर्वकारस्य अधिकारिभिः च श्रीधनखड़स्य स्वागतं विहितम्। उपराष्ट्रपतिः रेणिगुण्टा विमानपत्तनात् राजमार्गेण तिरुमलायां सम्प्राप्तवान्। सः तिरुपतिस्थे राष्ट्रिय संस्कृत विश्वविद्यालयस्य तृतीये दीक्षान्त समारोहे मुख्यातिथित्वेन भागं भजिष्यति। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना इटलीदेशस्य प्रधानमन्त्रिणा जियोर्जिया मेलोनी इत्यनया सह वार्तालापं कृत्वा जूनमासे जी सप्त शिखर सम्मेलने आमन्त्रणाय आभारभार प्रकटितः। एकस्मिन् सामाजिक संजालीये सन्देशे प्रधानमन्त्रिणा उक्तं यत् एतेन पदक्षेपेण द्वयोः देशयोः कार्यनीतिक सहभागितां गभीरीकरणस्य प्रतिबद्धतायाः पुष्टि भवति। सः अवदत् यत् उभौ नेतारौ जी सप्त सम्मेलने भारतस्य जी विंशति सम्मेलनस्य परिणामान् अग्रे नेतुम् अपि चर्चां कृतवन्तौ। श्रीमोदिना इटली देशस्य जनानां कृते तेषां देशस्य मुक्तिदिवसस्य शुभकामनापि प्रदत्ता। जम्मूकश्मीरे सीमवर्ती मण्डले पुंक्षेत्यस्य मेंढर क्षेत्रेष् शान्तिस्थिरतायै च स्वीय प्रयासान्तर्गतं सेनया ग्रामरक्षा रक्षकाणां शस्त्रसञ्चालनस्य भुषुण्डिप्रहारस्य च प्रशिक्षणं प्रदत्तम्। आईपीएल इत्याख्यायां क्रिकेट प्रतिस्पर्धायाम् अद्य तनीयं द्वन्द्वं सायं सार्ध सप्तवादने कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स पंजाब किंग्स दलयोः मध्ये भविष्यति। गतरात्रौ हैदराबाद नगरस्य राजीव गांधी अन्तर्राष्ट्रिय क्रीडांगणे रॉयल चैलेंजर्स बेंगलुरु दलेन सनराइजर्स हैदराबाद दलं पञ्चत्रिंशत् धावनांकैः पराजितम् इति वार्ताः।